चतुर्दशोऽध्यायः स्वाभाविकतया विकल्पवृत्तिहीनः सर्वकामनिवृत्तः निजबोधनिष्ठः विद्वान् सर्वस्वातन्त्र्येण विहरति तस्य स्थितिम् भावयितुम् लौकिकानाम् नास्ति शक्तिः इति जनकवचनम्। जनक उवाच प्रकृत्या शून्यचित्तो यः प्रमादाद् भावभावनः निद्रितो बोधितैव क्षीणसंसरणो हि सः क्व धनानि क्व मित्राणि क्व मे विषयदस्य वः क्व शास्त्रम् क्व च विज्ञानम् यदा मे गणिता स्पृहा। विज्ञाते साक्षिपुरुषे परमात्मनि चेश्वरे नैराश्ये बन्धमोक्षे च न चिन्तामुक्तये मम। अन्तर्विकल्पशून्यस्य बहिःस्वच्छन्दचारिणः भ्रान्तस्येव दशास्तास्ताः तादृशा एव जानते। ॐ